इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। मुख्य वार्ताः। झारखण्डे प्रथमचरणस्य विधानसभा निर्वाचनाभियानं सजवं प्रवर्तते। सर्वेषां राजनैतिक दलानां नेतारः मतदातॄन् आकर्षयितुं पूर्णबलेन कार्यं कुर्वन्ति। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् भाजपा दलं सर्वदा आदिवासी जनानां हिताय कल्याणाय च कार्यं करोति। भारतीय जनता पार्टी दलस्य वरिष्ठ नेता तथा गृहमन्त्री अमित शाह अद्य मुम्बई नगरे महाराष्ट्र विधानसभा निर्वाचनार्थं दलस्य घोषणापत्र संकल्पपत्रं विमोचितवान्। जम्मू कश्मीरस्य श्रीनगरस्य जबरवा क्षेत्रे अथ च बारामूला जनपदस्य क्षोपोर क्षेत्रे द्वौ आतंकरोधी अभियानौ प्रचलितः। कनाडा आरक्षिबलेन हिन्दू मन्दिरे आक्रमणम् आलक्ष्य ब्रिम्टन नगरे एकान्यजनस्य निगडनं विहितम्। अपि च भारत दक्षिण अफ्रीका देशयो मध्ये 20-20 क्रिकेट क्रीडा स्पर्धाया द्वितीयं द्वन्द्वं गकेबरा नगरस्य सेंट जॉर्ज पार्क इति क्रीडांगणे क्रीडिष्यते। झारखण्डे प्रथमचरणस्य विधानसभा निर्वाचनाभियानस्य समाप्त्यर्थं केवलं द्वौ दिवसौ अवशिष्टौ। एतादृशे सति सर्वेषां राजनैतिकदलानां नेतारः मतदातॄन् आकर्षयितुं पूर्णबलेन कार्यं कुर्वन्ति। भाजपादलस्य वरिष्ठनेता च नरेन्द्रमोदी अद्य राज्ये प्रचारकार्यक्रमे एकां जनसभां सम्बोधितवान्। अद्य अपराह्ने बोकारो नगरस्य चन्दनक्यारी विधानसभा क्षेत्रे विजय संकल्प अभियानं सम्बोधयन् प्रधानमन्त्री मोदी अवदत् यत् भाजपादलं सर्वदा आदिवासी जनानां हिताय कल्याणाय च कार्यं करोति। सः अवदत् यत् आदिवासी भ्रातृ भगिनीनाम् आकांक्षाः स्वाभिमानः च सर्वदा दलस्य कृते सर्वोपरि वर्तते। श्रीमोदी प्रोक्तवान् यत् विगत 10 वर्षेष् अस्माकं सर्वकारेण 3 लक्ष कोटि रूप्यकम् धनराशिं जनेभ्यः प्रदत्तः, यः कांग्रेस दलस्य अपेक्षया चतुर्गुणाधिकं वर्तते। झामुमो सर्वकारस्य आलोचनां कुर्वन् मोदी महोदय अवदत् यत् सोरेन सर्वकारेण झारखण्डस्य जनानां शोषणं लुण्ठनं च कृतम्।
हवा का रुख साफ है और मैं आपको वादा करता हूं, सरकार बनने के बाद इन भ्रष्टाचारियों को कड़ी से कड़ी सजा मिले, इसलिए अदालत में हम पूरी लड़ाई लड़ेंगे।
अस्य प्रत्युत्तरे रांची नगरे निर्वाचन सभां सम्बोधयन् सोरेन महोदय अवदत् यत् जनसमूह सर्वेषु कार्येषु दृष्टिं स्थापयति, सममेव ते निर्वाचने भाजपा दलस्य कृते समुचितं उत्तरं दास्यन्ति। हेमंत सोरेन इत्यस्य आरोपस्य खण्डनं कुर्वन् झारखण्डस्य भाजपा दलस्य प्रमुखः बाबूलाल मरांडी प्रोक्तवान् यत् केन्द्रीय संस्थाः निजकार्यं कुर्वन्ति इति। भारतीय जनता पार्टी दलस्य वरिष्ठ नेता तथा केन्द्रीय गृहमंत्री अमित शाह अद्य मुम्बई नगरे महाराष्ट्र विधानसभा निर्वाचनार्थं दलस्य घोषणापत्र संकल्पपत्रं विमोचितवान्। शाह महोदय अवदत् यत् भाजपायाः घोषणापत्रं राज्यस्य जनानां आकांक्षाणां प्रतिबिम्बम् अस्ति।
महाराष्ट्र की पूरी जनता के आकांक्षाओं का प्रतिबिंब इस संकल्प पत्र के अंदर दिखाई पड़ता है। हमने इस संकल्प पत्र के माध्यम से महापुरुषों की परंपराओं को, सांस्कृतिक विरासत को आगे बढ़ाने के संकल्प भी रखे हैं।
भाजपा दलेन सिंचन परियोजनानि, नदी जल वितरणं, प्रावृत्तकाले अतिरिक्त जलस्य उपयोग च राज्यम् अनावृष्टि मुक्तं कर्तुं स्वघोषणापत्रे प्रख्यापितम्। अस्मिन् कार्यक्रमे केन्द्रीय मन्त्री पीयूष गोयलः, महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीसः, महाराष्ट्रस्य भाजपा दलस्य अध्यक्षः चन्द्रशेखरः भावाकुले, अन्य च नेतारः उपस्थिताः आसन्। केन्द्रीय विद्युत मन्त्री मनोहरलालः अद्य नवदिल्ल्यां ध्वजं प्रदर्श्य ई वाहन माध्यमेन यात्रां कृतवान्। अस्मिन् अवसरे सः ईवी एज ए सर्विस इति कार्यक्रमम् अपि प्रारब्धवान्। अस्मिन् अवसरे मनोहरलाल महोदय अवदत् यत् एषः कार्यक्रमः एकस्य उदात्त कार्यस्य कृतम् आरब्धः, यस्य देहल्याः कृते बहु आवश्यकता वर्तते। सः प्रदूषणं न्यूनीकर्तुं विद्युत वाहनानां भूमिकाम् ईवी एज ए सर्विस कार्यक्रमस्य माध्यमेन महत्वं च प्रकाशितवान्। संस्कृतवार्तायाः संस्करणमिदम् इदम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। युवा कार्यम क्रीड़ा मंत्री डॉक्टर मनसुख मांडविया छत्तीसगढ़ से जसपुरे बुधवासरे जनजातीय गौरव दिवसावसरे भारतीय स्वयंसेवकै सह पदयात्रां करिष्यति। अस्मिन् कार्यक्रमे छत्तीसगढ़स्य मुख्यमंत्री विष्णुदेव साई अन्ये च राज्यमंत्रिणः भागग्रहणं करिष्यन्ति। अस्मिन् अवसरे ते भगवान बिरसा मुंडाया जन्मदिवसावसरे स्मरणं करिष्यन्ति। सममेव तस्य राष्ट्रस्य विकासे आदिवासी समुदायस्य महत्वपूर्णं योगदानस्य विषये परिचर्चाम् अपि करिष्यन्ति। मनोरंजनस्य जगतम् अधिकं मनोरंजकं च कर्तुं इफ्फी भारत अन्ताराष्ट्रिय चलचित्र महोत्सव इत्यनेन इफ्येस्टा इत्यस्य आयोजनस्य घोषणा कृता। अस्य उद्देश्यं चलचित्रस्य भोजनस्य कलानां अन्तर्क्रियाशीलानां अनुभवानां च माध्यमेन जनान संयोजनं वर्तते। इफ्येस्टा इत्यस्य आयोजनं नवम्बर मासस्य एकविंशतिः दिनांकतः अष्टाविंशति दिनांक पर्यन्तं गोवा देशस्य पणजी नगरस्य कला अकादम्यां भविष्यति। सूचना प्रसारण मंत्रालयस्य सूत्रानुसारं प्रतिपादितं यत् अस्मिन्नेव कार्यक्रमे सांस्कृतिक कार्यक्रमाणां विस्तृता श्रृंखला आयोजिता भविष्यन्ति। ऋतुविज्ञान विभागेन अद्य तमिलनाडु नगरे मेघगर्जनेन विद्युताकाशेन च प्रचंड वृष्टेः संभावना प्रकटिता। शुक्रवासर पर्यन्तं केरल माहे पुद्दुचेरी कराईकल च इत्येतेषु क्षेत्रेषु वर्षा भविष्यति इति सूच्यते। आगामि दिवसद्वये हिमाचल प्रदेशः पंजाब चेत्येषु राज्येषु सघननिहारस्य संभावना वर्तते। तस्मिन्नेव काले दिल्ली राष्ट्रिय राजधानी क्षेत्रे रात्रौ प्रातः काले च निहारः लघुनिहारः च भवितुम् अर्हति। चतुरंग क्रीडायां चेन्नई नगरस्य अन्ना शताब्दी पुस्तकालये नवंबर मासस्य पञ्चदिनांकतः एकादश पर्यन्तं चेन्नई ग्रैंड मास्टर्स चतुर्विंशत्यधिक द्विशततम वर्षस्य क्रीडायाः आयोजनं प्रचलति, यत्र मास्टर्स चैलेंजर्स वर्गयोः आयोजनं प्रचलतः। अमेरिका देशस्य ग्रैंड मास्टर लेवोन एरोनियः पञ्चमे चक्रे फ्रांस देशस्य जी एम मैक्सिन वाइयर लाग्रेवं पराजित्य शीर्षस्थानं प्राप्तवान्। हांगकांग नगरे सीनियर एशियन जूडो ओपन क्रीडायां भारतेन त्रीणि कांस्य पदकानि विजितानि। एंजेल यादव महिलायाः अष्टचत्वारिंशत् किलोग्राम भारवर्गे, पुरुषाणां षष्टिः किलोग्राम भारवर्गे जतिनः, त्रिसप्ततिः किलोग्राम भारवर्गे सौरभः च कांस्य पदकानि प्राप्तानि। भारत दक्षिण अफ्रीका देशयोः मध्ये विंशतिः प्रतिविंशति क्रिकेट क्रीडा स्पर्धायाः द्वितीयं द्वन्द्वं गकेबरहा नगरस्य सेंट जॉर्ज पार्क इति क्रीडांगणे क्रीडिष्यते। इयं स्पर्धा अद्य सायं सार्धसप्तवादने क्रीडिष्यते। अस्यायाः श्रृंखलायाः प्रथमे द्वन्द्वे भारतेन दक्षिण अफ्रीका दलं एकषष्टिः धावनांकैः पराजितम्। अस्यायाः श्रृंखलायाः तृतीयः द्वन्द्वः बुधवासरे सेंचुरियन नगरे, चतुर्थः द्वन्द्वः शुक्रवासरे जोहान्सबर्गे नगरे च भविष्यति। मुख्यवार्ताः पुनरेकवारम्। झारखण्डे प्रथमचरणस्य विधानसभा निर्वाचनाभियानं सजवं प्रवर्तते। सर्वेषां राजनैतिकदलानां नेतारः मतदातॄन् आकर्षयितुं पूर्णबलेन कार्यं कुर्वन्ति। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् भाजपादलं सर्वदा आदिवासीजनानां हिताय कल्याणाय च कार्यं करोति। भारतीय जनता पार्टी इति दलस्य वरिष्ठनेता तथा केन्द्रीय गृहमन्त्री अमितशाहः अद्य मुंबई नगरे महाराष्ट्र विधानसभा निर्वाचनार्थं दलस्य घोषणापत्र संकल्पपत्रं विमोचितवान्। जम्मू कश्मीरस्य श्रीनगरस्य जबरवा क्षेत्रे अथ च बारामूला जनपदस्य सोपोर क्षेत्रे द्वौ आतंकरोधी अभियानौ प्रचलितः। कनाडा आरक्षिबलेन हिन्दू मन्दिरे आक्रमणम् आलक्ष्य ब्रिम्टन नगरे एकान्यजनस्य निगडनं विहितम्। अपि च भारत दक्षिण अफ्रीका देशयोः मध्ये विंशतिः प्रतिविंशति क्रिकेट क्रीडास्पर्धायाः द्वितीयं द्वन्द्वं गकेबरहा नगरस्य सेंट जॉर्ज पार्क इति क्रीडांगणे क्रीडिष्यते।